चैप्टर 4 भगवद गीता बाय आरजीएचएस बॉयज अथ चतुर्थो अध्यायः
संतुष्टो द्वन्द्वातीतो विमत्सरा समासिद्धौ असिद्धौ च कृत्वापि न निबध्यते गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसा यज्ञाचरतकर्म समग्रं प्रविधीयते ब्रह्मार्पणं ब्रह्मवे ब्रह्मार्गं ब्रह्मणाहुतं ब्रह्मरतेन गन्तव्यं ब्रह्मकर्मा समाधिना दैवमेव परेयज्ञं योगिना परिपासते ब्रह्मार्गमपरेयज्ञं यज्ञेन गोपशुवति श्रोतादीनिन्द्रियानन्ये संयमाधिषु जुवति शब्दादिविषयानन्य इन्द्रियाधिषु जुवति सर्वेन्द्रियकर्माणि प्राणकर्माणि चापरे आत्मसंयमयोगौ जुवति ज्ञानधिपते द्रव्ययज्ञस्तपो यज्ञ योगयज्ञस्ततापरे स्वाध्यायज्ञानयज्ञाश्च यथाया संस्थिता वृता आपणे जुवति प्राण प्राणे पाणं तथा परे प्राणापानदले रुत्वा प्राणायामपरायणा अपरे नियताहारा प्राणा प्राणेषु जुवते सर्वेभ्यज्ञविदो यज्ञश्रवितकल्मषा यज्ञभुजो यान्ति नायं लोकोऽस्याभ्यास्य कुतो ज्ञातुं सत्तमा एवं बहुविधायज्ञा विदथा ब्रह्मणो मुखे कर्म जानन्ति तान् सर्वान् एवं ज्ञात्वा विमोक्षसे श्रेया द्रव्यमयाज्ञा ज्ञानयज्ञा परं तपा सर्वं कर्माभिरं पाकं ज्ञाने परिसमाप्यते तद्वेद्ये परिपादेन परिदर्शेन सेवया उपादिक्षन्ति ते ज्ञानं ज्ञानिना सर्वदर्शिना यज्ञात्वा न पुनर्मोहम् एवं यस्यासि पाण्डवा येन भूतानि शेषानि द्रक्ष्यसेयामनोमये अपि छेदसि पापेभ्य सर्वेभ्य पापकृत्तम सर्वज्ञानपरेणैव विजीनं शन्तरिष्यसि यतेदांसि समेद्योमे भस्मसात्करुते जना ज्ञानाय सर्वकर्माणि भस्मसात्करुते तदा न हि ज्ञानेन सदृशं पवित्रमिह विद्यते तत्स्वयं योगसंसिद्धा कार्येणात्मनिन्द्यते श्रद्धा वा लभते ज्ञानम् तत्परा सम्यतेन्द्रिया ज्ञानाङ्गभावनाशमे अचिरेणादिगच्छते अक्षश्च शस्त्रदानश्च संशयात्मा विनश्यते नायां लोकोऽस्ति न परो न सुखं संशयात्मना योगसन्न्यस्तकर्माणं ज्ञानसञ्चिन्न संशयम् आत्मबन्धं न कर्माणि निवर्तन्ते धनञ्जय तस्मादज्ञानसम्भूतं हृत्सञ्ज्ञानाश्रधान्यतं चित्त्वैनं संशयं योगम् आतिष्ठोतिष्ठ भारत ॐ नस्सर्वे श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायानुयोगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसन्न्यासयोगो नाम चतुर्थोऽध्यायः हरे कृष्णा 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 हरे 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 राम राम राम